सर्वेभ्य नमस्कार उद्योगमति कक्षां प्रति भवतां हार्दं स्वागतम्। पूर्वतनकक्षायां क्रियापदानि इत्यस्मिन् अध्याये वयं कांश्चन शब्दान् दृष्टवन्तः। अस्मिन् अपि पाठे अस्मिन् कालांशे अन्यान् कांश्चन शब्दान् पश्यामः। अत्र वाक्यमस्ति एतं विषयं श्वः चर्चिष्यामः इति। चर्चिष्यामः इति असाधुः प्रयोगः। चर्चयिष्यामः इति प्रयोगः करणीयः। चर्च इति धातुः अध्ययनार्थकः दशमगणीयः। चर्चयति इति प्रथमपुरुष एकवचनान्तं रूपं लट् लकारे। लट् लकारे तु चर्चयिष्यति इति रूपम्। अतः चर्चयिष्यामः इति प्रयोगः करणीयः। सः केनापि सह सम्भाषयितुं न इच्छति। दोषयुक्तः प्रयोगः। सम्भाषितुम् इति प्रयोक्तव्यम्। सम्भाषते इत्यस्य तुमुन्नन्तरूपं सम्भाषितुम् इति। प्रकृतवाक्ये सः स्वयं सम्भाषणं कर्तुम् इच्छति, अतः ण्यन्तस्य प्रयोगः न उचितः। विना कारणं बालाः न ताडितव्याः इति दोषयुक्तः प्रयोगः। ताडयितव्याः इति प्रयोक्तव्यम्। आघातार्थकः ताडधातुः दशमगणीयः। तस्य प्रथमपुरुषे एकवचने वर्तमानकाले ताडयति इति रूपम्। अतः ताडयितव्यः इति प्रयोक्तव्यम्। अद्य सभायां पारितोषिकानि वितरितानि इति दोषयुक्तः प्रयोगः। विदीर्णानि इति प्रयोक्तव्यम्। ध्रुवधातुः तरणार्थकः। तस्य निष्ठायां क्तप्रत्यये सः विकल्पितः इट् इत्यतः सनि इटः निषेधः भवति, अतः विदीर्णानि इति रूपम्। एतानि त्रीणि वाक्यानि वयं पश्यामः। व्याघ्राय वृक्षारोहणं न आगच्छति। मम संस्कृतं न आगच्छति। भवते संस्कृतम् आगच्छति किम्? एते सर्वेपि प्रायः प्रादेशिकभाषाप्रभावतः प्रयुज्यमानाः शब्दाः, प्रयुज्यमानानि वाक्यानि। व्याघ्रः वृक्षम् आरोढुं न शक्नोति। मया संस्कृतं न ज्ञायते। अहं संस्कृतं न जानामि। भवान् संस्कृतं जानाति किम् इति शुद्धाः प्रयोगाः। यदि अहं रात्रौ गृहं न गच्छेयं तर्हि गृहजनाः चिन्तिताः भवन्ति। अत्र चिन्ताग्रस्ताः भवन्ति इति प्रयोक्तव्यम्। चिति धातुः संज्ञानार्थकः। तस्य लटि प्रथम एकवचने चिन्तयति इति रूपम्। प्रकृतवाक्ये गृहजनाः इति प्रथमान्तं पदम्, अतः वाक्यम् अशुद्धम्। अतः चिन्ताग्रस्ताः भवन्ति इति प्रयोक्तव्यम्। तेन तन्निकः सम्पृक्तः, सम्पर्कितः। एतद् रूपद्वयमपि साधु एव। प्रचीसम्पर्के प्रचि इति धातुः सम्पर्कः इत्यर्थः। सेट् अयं धातुः। तस्य क्तप्रत्यये इट् न भवति, अतः सम्पृक्तः इति रूपम्। सम्पर्कशब्दात् णिचि तत्करोति दधाषष्ठे इति णिचि सम्पर्क इति रूपम्। तस्य क्तप्रत्यये सम्पर्कितः इति रूपम्। अतः रूपद्वयमपि एतद् शुद्धमेव। तेन बहवः सम्पर्कितव्याः सन्ति। अत्र सम्पर्जितव्याः अथवा सम्पर्कयितव्याः अथवा सम्पर्कणीयाः इति प्रयोक्तव्यम्। यतः प्रचीधातोः तव्यदन्तं रूपं प्रयोक्ता प्रयोक्तुमिच्छति। पृच्छतव्य इति स्थिते इडागमे पर्चितव्यं रूपम्। अतः सम्पर्चितव्याः इति आदौ उक्तम्। सम्पर्क इति इत्यस्मात् तव्यति सम्पर्कयितव्यम् इति। अनियर् प्रत्यये सम्पर्कणीयम् इति रूपं भवति। एवम् आशासमानः सः राजसमीपम् अगच्छत्। आशासमानः इति अपशब्दः। आशासानः इति प्रयोक्तव्यम्। इच्छार्थकः शासधातुः। सः आत्मनेपदी। प्रायः नित्यम् आङ्पूर्वः। वर्तमानकाले आशास्ते इति रूपम्। शानचि आशासानः इति रूपम्। विमर्शकः ग्रन्थः विमर्शयति इति दोषयुक्तः प्रयोगः। विमर्शति इति प्रयोक्तव्यम्। आमर्शनार्थकः मृषधातुः ष्ठगणीयः मात् विमर्शति इति रूपम्। एतानि अन्यानि उदाहरणानि वयं पश्यामः। सौचिकः वस्त्रं सीवयति इति दोषयुक्तः प्रयोगः। सौचिकः वस्त्रं सीव्यति इति। तरुणः वस्त्रं धारयति इति दोषयुक्तः प्रयोगः। तरुणः वस्त्रं धरति इति। बालकः चित्रम् अवलोकयति इति दोषयुक्तः प्रयोगः। बालकः चित्रम् अवलोकते। बालकः रुचिम् आस्वादयति इति दोषयुक्तः प्रयोगः। बालकः रुचिम् आस्वादते। रक्षकः गृहं रक्षयति इति दोषयुक्तः प्रयोगः। गृहं रक्षति। लेपकारः लेपयति दोषयुक्तः प्रयोगः। लेपकारः लिम्पति। सः दुरभ्यासं विसर्जयति इति दोषयुक्तः प्रयोगः। सः दुरभ्यासं विसर्जति। कर्मकरः जलं सेचयति इति दोषयुक्तः प्रयोगः। कर्मकरः जलं सिञ्चति इति। चिन्तकः आलोचयति इति दोषयुक्तः प्रयोगः। चिन्तकः आलोचते। प्रकाशकः लेखं प्रकटयति इति दोषयुक्तः प्रयोगः। प्रकाशकः लेखं प्रकटति इति शुद्धः प्रयोगः। एवमेव अन्यानि उदाहरणानि यत्र अण्यन्तमोहः इति उच्यते तानि उदाहरणानि पश्यामः। शिरोवेदना वर्धिता इति दोषयुक्तः प्रयोगः। शिरोवेदना वृद्धा इति। क्षीरं दूषितम् इति दोषयुक्तः प्रयोगः। क्षीरं दुष्टम् इति समीचीनः प्रयोगः। सः चोरं बन्धितवान् इति दोषयुक्तः प्रयोगः। सः चोरं बद्धवान् इति शुद्धः प्रयोगः। अधिकारिणा एवं निर्देशितम् इति दोषयुक्तः प्रयोगः। अधिकारिणा एवं निर्दिष्टम् इति साधु प्रयोगः। जनाः यानं नोदितवन्तः इति दोषयुक्तः प्रयोगः। जनाः यानं नुन्नवन्तः नुत्तवन्तः इति साधु प्रयोगः। भक्ताः रथम् आकर्षितवन्तः इति दोषयुक्तः प्रयोगः। भक्ताः रथम् आकृष्टवन्तः इति समीचीनः प्रयोगः। शत्रवः नगरम् आक्रमितवन्तः इति दोषयुक्तः प्रयोगः। शत्रवः नगरम् आक्रान्तवन्तः इति समीचीनः प्रयोगः। कृषिकः वृक्षं छेदितवान् इति दोषयुक्तः प्रयोगः। कृषिकः वृक्षं छिन्नवान् इति समीचीनः प्रयोगः। गुरुः मन्त्रम् उपदेशितवान् इति दोषयुक्तः प्रयोगः। गुरुः मन्त्रम् उपदिष्टवान् इति समीचीनः प्रयोगः। शुनकः दंशितवान् इति दोषयुक्तः प्रयोगः। शुनकः दष्टवान् इति साधु प्रयोगः। विमर्शकः विमर्शितवान् इति दोषयुक्तः प्रयोगः। विमर्शकः मृष्टवान् इति साधु प्रयोगः। सा लतां सिञ्चितवती इति दोषयुक्तः प्रयोगः। सा लतां सिक्तवती इति साधु प्रयोगः। सभा विसर्जिता इति दोषयुक्तः प्रयोगः। सभा विसृष्टा इति साधु प्रयोगः। अभिमन्युः व्यूहं भेदितवान् इति दोषयुक्तः प्रयोगः। अभिमन्युः व्यूहं भिन्नवान् इति साधु प्रयोगः। सः सर्वत्र भ्रमितवान् इति दोषयुक्तः प्रयोगः। सः सर्वत्र भ्रान्तवान् इति शुद्धः प्रयोगः। क्षणाभ्यन्तरे अहं भवता गृहे उपतिष्ठामि इति दोषयुक्तः प्रयोगः। उपतिष्ठे इति उपस्थितः भवामि इति वा प्रयोक्तव्यम्। क्रीडाङ्गणे बालकाः कूर्दन्ति इति दोषयुक्तः प्रयोगः। कूर्दन्ते इति प्रयोक्तव्यम्। उपतिष्ठे इत्यत्र उपायित्यस्मात् उपसर्गात् ष्ठधातोः आत्मनेपदित्वं नित्यं भवति। यदि अन्यथा प्रयोक्तुम् इष्यते उपस्थितः भवामि इति प्रयोक्तुं शक्यते। कूर्दन्ते इत्यत्र कूर्द इति धातुः क्रीडार्थकः। उपधायाञ्च इति उकारस्य दीर्घः। अयं धातुः आत्मनेपदि अतः कूर्द परस्मैपदि रूपं तु नास्ति एव। कूर्दते इत्येव कूर्दन्ते इति अत्र बहुवचनम् अस्ति। दाशरथपुत्रं दाशरथिः इत्यपि आह्वयन्ति जनाः। ஆஹ்வயந்தி இதி பிரயோக அஸ்தானே. ஆஹ்வானம் நாம அபிமுகீகரணம். நிர்திஷந்தி இதி பிரயோக்தவ்யம். ஜனாஹ தசரதிம் அபிமுகீகர்த்தும் ந இச்சந்தி. அத்ர நிர்தேஷஹ ஏவ இஷ்டஹ. காரியக்ரமார்த்தம் அத்யக்ஷத்வேன கம் நிமந்த்ரயாமா. அத்ர நிமந்த்ரயாமஹி இதி பிரயோக்தவ்யம். மத்ரிதாதுஹு குப்தபாஷணார்த்தகாஹ சுராதிஹி. அகுஸ்மீய கணீய ஏஷஹ. அகுஸ்மீய சர்வேபி ஆத்மநேபதினஹ ஏவ. அதஹ நிமந்த்ரயாமஹி இதி பிரயோக்தவ்யம். துர்ஜனஹ ஜனான் பௌதா வஞ்சயந்தி இதி தோஷயுக்தஹ பிரயோகஹ. வஞ்சயந்தே இதி பிரயோகஹ சமீசீனஹ. வஞ்சயந்தி இதி பிரயோகஹ சமக்ரஹ துஷ்டஹ இதி ந உச்யதே. கிந்து ப்ரஷஸ்ததரஹ பிரயோகஸ்து வஞ்சயந்தே இதி. தஸ்ய ரூபம் அகர்ஷணீயம் அஸ்தி இதி பிராதேசிக பாஷா பிரபாவத்தஹ ப்ரயுச்யதே. அகர்ஷணார்ஹம் இத்யர்த்தஹ அபிப்ரேதஹ. அத்ர அகர்ஷணார்ஹம் இதி அர்த்தஹ இதி அபிப்ரேதஹ. தர்ஹி அயம் பிரயோகஹ ந தோஷாய. அந்நிய பிரயோகாஹ எதாதுஷாஹ பரிகணனீயம் காரியம் பரிகணனார்ஹம் இத்யர்த்தஹ. தர்ஷனீயம் ரூபம் தர்ஷனார்ஹம் இத்யர்த்தஹ. அபிநந்தனீயம் கிருத்யம் அபிநந்தனார்ஹம் இத்யர்த்தஹ. அனநீயம் வசனம் அனார்ஹம் இத்யர்த்தஹ. அசஹனீயா வேதனா சோடும் அசக்யா வேதனா இத்யர்த்தஹ. சபா மண்டபஹ சோபாயமானஹ அஸ்தி இதி பிரயோகஹ. சோபமானஹ இதி பிரயோகேண ஏவ இஷ்டசித்திஹ. தீப்த்யர்த்தக சோபதாது தஸ்ய ஷானஜ் ப்ரத்யயஹ. சோபமானஹ இத்யனேன ஏவ இஷ்டசித்திஹ பவதி. ஏஷஹ சர்வதா நித்ராதும் இச்சதி நித்ரிதும் இச்சதி இதி தோஷயுக்தஹ பிரயோகஹ. நித்ராதும் இதி பிரயோக்தவ்யம். நீ இதி உபசர்கஹ த்ராதாது ஸ்திதுன் பிரத்யஹ. த்ராதும் இதி ரூபம். நித்ராதும் இதி சாது பிரயோகஹ. பாலகஹ ஸ்வபிதும் இச்சன் மாதரம் ஆஹ்வயதி. ஸ்வப்தும் இதி பிரயோக்தவ்யம். ஸ்வப் தாதுஹ சயனார்த்தகஹ தஸ்மாத் துமுன் பிரத்யே இடாகமஹ ந பவதி. அதஹ ஸ்வப்தும் இதி ரூபம். கதா புஸ்தகம் அதீதும் அபி ஸமயஹ நாஸ்தி. அத்யேதும் இதி பிரயோக்தவ்யம். அத்யயனார்த்தக இங்காதுஹ சஹ நித்யம் திபூர்வஹ. துமுன் பிரத்யே ஏதும் இதி ரூபம். அதீது உபசர்கஹ அத்யேதும் இதி ரூபம். சுகந்தி புஷ்பஸ்ய அக்ரஹணம் சர்வே குருவந்தி. அக்ரஹணம் இதி அபசப்தஹ. அக்ரஹணம் இதி பிரயோக்தவ்யம். ஆ இதி உபசர்கஹ க்ராதவதுஹ அஸ்ய லுக் பிரத்யே அநாதேசே அக்ரஹணம் இதி ரூபம். லுக் பிரத்யய புனஹ லுக் பிரத்யய ந பவதி. அவசியகதா நாஸ்தி. அதஹ அக்ரஹணம் இதி பிரயோக்தவ்யம். கர்மகரஹ ப்ரதிதினம் ஜலசிஞ்சனம் கரோதி. ஜலசேசனம் இதி பிரயோக்தவ்யம். க்ஷணார்த்தகஹ ஷிச்சதாதுஹ அஸ்ய புகந்தலகுபதஸ்ய இதி குணே சேசனம் இதி ரூபம். அயம் குணஹ நித்யஹ. ஏதாதுஷஹ பஹவஹ காரியக்ரமஹ ப்ரசரயரன் ப்ரசலேயுஹ இதி பிரயோக்தவ்யம். கம்பனார்த்தக ஜலதாதுஹ பரஸ்மைபதி தஸ்ய லிங்லகாரே பிரதமபுருஷ பஹுவசனே ஜலேயுஹ இதி ரூபம். பாந்தவாஹ கதி தினானி நிவசிஷ்யந்தி இதி நாஹம் ஜானே இதி தோஷயுக்தஹ பிரயோகஹ. நிவத்ஸ்யந்தி இதி பிரயோக்தவ்யம். நிவாசார்த்தகஹ வசதாதுஹ அனேட். பவிஷ்யதி லட்லகாரே தஸ்ய இடாகமோ ந பவதி. ததா நிவத்ஸ்யதி இதி ரூபம். तकारस्तु सस्यार्थधातुके इति सूत्रेण मानवेन उत्तमं जीवनं जीवनीयम्। अत्र जीवनं करणीयम् इति अथवा उत्तमतया जीवनीयम् इति प्रयोक्तव्यम्। प्राणधारणात्मकः जीवधातुः अकर्मकः, अतः जीवनं करणीयम् उत्तमतया जीवनीयम् इति वा प्रयोक्तव्यम्। कष्टाद् भीताः वयं न रोदिमः इति दोषयुक्तः प्रयोगः, रोदिमः इति प्रयोक्तव्यम्। अश्रुविमोचनार्थकः रोदधातुः, तस्य मस् प्रत्यये गुणः न भवति, इत्तु भवत्येव रुदादिभ्यः सार्वधातुके इति, अतः रुदिमः इति रूपम्। कार्यक्रमः पञ्चवादने आरभते, आरभ्यते इति प्रयोक्तव्यम्। रभराभस्य इति राभस्यार्थकः रभधातुः सकर्मकः, राभस्यम् इत्यस्य उपक्रमः इत्यर्थः, अतः आरभ्यते। आरभते इत्यत्र कार्यक्रमः एव कर्म, अतः कार्यक्रमम् आरभते इति प्रयोक्तव्यम्। अत्र कार्यक्रमः इति प्रयुक्तम् इत्यतः आरभ्यते इति प्रयोक्तव्यम्, जनैः इति कर्तृपदं भवितुम् अर्हति। आतपकारणात् हिमं द्रवितं भवति, द्रुतं भवति इति प्रयोक्तव्यम्। गत्यर्थकः द्रुधातुः, तस्य क्तप्रत्यये इडागमो न भवति, अतः द्रुतम् इति रूपम्। द्रवितम् इति प्रयोगस्तु भ्रान्त्या एव। अतीयमानस्य वर्षस्य कार्यक्रमः अधो निर्दिष्टाः सन्ति इति दोषयुक्तः प्रयोगः। अतीयतः वर्षस्य, अतीयातः वर्षस्य इत्यादयः प्रयोगाः भवितुम् अर्हन्ति। अतिपूर्वकात् गत्यर्थकात् इण् धातोः कर्मणि यक् प्रत्यये अतीयते इति रूपम्। शानचि अतीयमानम् इति, अतीयमानम् इति कर्मणः विशेषणम्। अतः उपर्युक्ते वाक्ये तु वर्षस्य कर्तृत्वम् इष्यते, अतः वर्षमतीतम्, कालः त्येति इत्यादयः प्रयोगाः इष्टाः। अतीयमानपदं कर्तुः विशेषणं भवितुम् नार्हति, अतः अतीयतः वर्षस्य, अतीयातः वर्षस्य इति वा प्रयोक्तव्यम्। उड्डीयमानः पक्षी व्याधेन मारितः, उड्डयमानः इति प्रयोक्तव्यम्। आकाशगत्यर्थकः डीङ् धातुः, भ्वादिः, डयते इति रूपम्। शानचि डयमानः इति रूपम्, डयमानः पक्षी इति प्रयोगः समीचीनः। वाक्यमेतत् अनुवदितव्यं भवता, अत्र अनुवदितव्यम् इति अनुवक्तव्यम् इति वा प्रयोक्तव्यम्। वद धातुः तव्यत् प्रत्यये तस्य वदितव्यम् इति रूपम्। सम्प्रसारणे सत्येव उदितव्यम् इति स्यात्, किन्तु सम्प्रसारणं भवति किति प्रत्यये परे, तव्यत् प्रत्ययः न कित्, अतः सम्प्रसारणं न भवति। तदनुसृतं मया एवं कृतम् इति प्रादेशिकभाषा प्रभावतः प्रयुज्यमानं वाक्यम्। तदनुसारम् इति तदनुसारेण इति वा प्रयोक्तव्यम्। अनुसृतम् इत्यत्र अनुपूर्वकस्य सृधातोः कर्मणि तत्प्रत्ययः। जनैः व्यवह्रियमाणा भाषा कथं निर्जीवा स्यात्, अत्र यया व्यवह्रियते सा भाषा इति प्रयोक्तव्यम्। व्यवह्रियमाण इत्यत्र शानप्रत्ययः, सः कर्तृत्वे कर्मार्थे वा भवितुमर्हति। व्यवहारक्रियायां भाषायाः करणत्वं भवति, अतः एव संस्कृतेन सम्भाषणं कुरु इति प्रयोगाः सङ्गच्छन्ति। ಕರಣಾರ್ಥ ಶಾನಸ್ಪೃತ್ಯೇನ ನ ಅಭಿಧೀಯತೆ. ಅತಃ ಯಯಾ ವಿವರ್ಹ್ಯತೆ ಸಾ ಭಾಷಾ ಇತಿ ಅನುಪೂರ್ವೇ ಪ್ರಯೋಕ್ತಂ ಉಚಿತ. ನ ದೃಶ್ಯತಃ ಭವಂತೋ ಏಷು ದಿನೇಷು ಇತಿ ದೋಷಯುಕ್ತಃ ಪ್ರಯೋಗಃ. ನ ದೃಶ್ಯೇತೆ ಇತಿ ಪ್ರಯೋಕ್ತವ್ಯಂ. ದೃಶ್ಯತೆ ಇತಿ ದೃಶ್ಯಧಾತೋಃ ಕರ್ಮಣಿ ರೂಪಂ ತಚ್ಚ ಆತ್ಮನೇಪದಿ ಅಚ್ಚ ಪ್ರಥಮ ಪ್ರಥಮ ಪುರುಷ ದ್ವಿವಚನಾಂತಂ ರೂಪಂ ದೃಶ್ಯೇತೆ ಇತಿ. ಕರ್ಮಪದಂ ದ್ವಿವಚನೆ ಅಸ್ತಿ ಇತ್ಯತಃ ಕ್ರಿಯಾಪದಮಪಿ ದ್ವಿವಚನಾಂತಂ ಏವ. ಎತಾವತ್ ಪರ್ಯಂತಂ ಕ್ರಿಯಾಪದಾನ ವಿಷಯ ಕಿಂಚಿತ್ ಪಠಿತವಂತಃ. ಕಾರಣಾಂತರವಶಾತ್ ಕಕ್ಷಾ ಅಧುನಾ ಅತ್ರೈವ ಸಮಾಪಯಾಮಃ. ಯೇಪಿ ಸಂದೇಹಾ ಸಂತಿ ಚೇತ್ ಕೃಪಯಾ ಅತ್ರ ಸಂದೇಹಾ ಭವದ್ಭಿಃ ಪ್ರೇಷಯಿತುಂ ಶಕ್ಯಂತೆ. ಪೂರ್ವತನ ಪಾಠ ಸರ್ವೇ ಅತ್ರ ಲಭ್ಯಂತೆ ಇತಿ ಭವಂತಃ ಜಾನಂತಿ ಏವ. ಅದ್ಯತನ ಪಾಠಂ ಅತ್ರ ಸಮಾಪಯಾಮಃ. ಸರ್ವೇಭ್ಯಃ ಧನ್ಯವಾದಾಃ.